परमात्मने नमः। अथ षोडशोऽध्यायः दैवासुरसम्पद्विभागयोगः। श्रीभगवानुवाच, अभयं सत्त्वसं शुद्धिः, ज्ञानयोगव्यवस्थितिः, दानं दमश्च यज्ञश्च, स्वाध्यायस्तप आर्जवम्, अहिंसा सत्यमक्रोधः, त्यागः शान्तिरपैसुनं, दया भूतेष्वलोलुप्त्वं, माधवं ह्रेरचापलं, तेजः क्षमाधृतिसौच्यम्, अद्रोहो नातिमानिता, भवन्ति सम्पदं दैवीम्, अभिजातस्य भारता, दम्भोदर्पोऽभिमानश्च, क्रोधः पारुष्यमेव च, अज्ञानं चाभिजातस्य, पार्थसम्पदमाशुरीं, दैवी सम्पद्विमोक्षाय, निबन्धायासुरीमत, मासु च सम्पदं दैवीम्। अभिजातोऽसि पाण्डवा, द्वावभूतः सर्गौ लोकेऽस्मिन्, दैव आसुर एव च, दैवो विस्तरशः प्रोक्तः। आसुरं पार्थ मे शृणु, प्रवृत्तिं च निवृत्तिं च, जनान् विदुरासुराः, नासौचं नापि चाचारः। न सत्यं तेषु विद्यते, असत्यमः प्रतिष्ठं ते, जगडाहुरनीश्वरम् अपरस्परसम्भूतं, किमान्यात् कामहैतुकम्। एतं धृष्टमवस्तभ्य, नस्तात्मानोऽल्पबुद्ध्ययः, प्रभवन्त्युग्रकर्माणः, क्षयाय जगतो हिताः, काममाश्रित्य दुष्पूरं, दम्भमानमदान्विताः, मोहाद्गृहीत्वा सद्ग्रहान् प्रवर्तन्ते सुचिवृताः, चिन्तामपरिमेयां च, प्रलयां तामुपाश्रितः, तामोपपोगपरमाः, एता विदिति निश्चिताः, आशा पाशसतेर्बद्धाः, कामः क्रोधः परायणाः, ईहन्ते कामभोगार्थम्, अन्यायेनार्थसञ्चयान्, इदमध्यं मया लब्धम्, इमं प्राप्से मनोरथम्, इदमस्तीदमपि मे, भविष्यति पुनर्धनम्। असो मया हताः शत्रुः, हनिष्ये चापराणपि, ईश्वरोऽहमहं भोगी, सिद्धोऽहं बलवान् सुखी, आद्योऽभिजनवानस्मि, कोऽन्योऽस्ति सदृश मया, यक्षे दास्यामि मोदिष्ये, इत्यज्ञानविमोहिताः, अनेकचित्तविभ्रान्ताः, मोहजालसमावृताः, प्रसक्ताः कामभोगेषु, पतन्ति नरकेषु च, आत्मसम्भावितास्तब्धाः, धनमानमदान्विताः, यजन्ते नाम यज्ञेस्ते, दम्भेनाविधिपूर्वकम्, अहङ्कारं बलं दर्पं, कामं क्रोधं च संस्मृताः, ममात्मपरदेहेषु प्रद्विषन्तो व्यसूयकाः, तानहं द्विषतः क्रूरान्, संसारेषु नरादमान्, क्षिपां यजस रामशुभान्, आसुरिष्वेव योनिषु, आसुरीं योनिमापन्नाः, मूढा जन्मनि जन्मनि, मम प्राप्यैव कौन्तेय, ततो यातिदमां गतिं, त्रिविधं नरकेष्येदं, द्वारं न सानमात्मनः, कामः क्रोधस्तलोभः, तस्मादेतत्रयं त्यजेत् एतेर्विमुक्तकौन्तेय त्वमुद्वारैस्तिभे नरः आचार्यत्यात्मनश्रेय ततो याति परां गतिं या शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न स सिद्धिमवाप्नोति न सुखं न परां गतिं तस्माच्चास्त्रं प्रमाणं ते कार्यकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविदानोक्तं कर्म कर्तुमिहार्हसि ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः।